स्त्रीशब्दस्य इयति इति प्रत्ययः परे विद्यते यः प्रत्ययः इयति इति प्रत्ययवतु प्रत्ययस्यैव खलु रूपं कस्मात् परे विद्यते स्त्रीशब्दात् परे विद्यते तदादिशब्दस्वरूपं स्त्री इत्याकारकं तस्य इयति इति प्रत्यये परे अङ्गसंज्ञा स्यात् इयति इति प्रत्यये परे स्त्रीशब्दस्यापि अङ्गसंज्ञा प्राप्नोति अङ्गसंज्ञायां स्त्रियाः इत्यनेन इयङादेशः स्यात् अतः किं वक्तव्यं यः प्रत्ययः यस्मात् विधीयते इति वक्तव्यम् अत्र इयत् इति प्रत्ययः नाम भतुक् प्रत्ययस्यैव खलु इयति रूपं जातं स च भतुक् प्रत्ययः कस्मात् विहितः इदं शब्दात् विहितः न तु स्त्रीशब्दात् अत्र यः प्रत्ययः भतुक् प्रत्ययः यस्मात् क्रियते इदं शब्दात् क्रियते न तु स्त्रीशब्दात् एवञ्च भतुक् प्रत्यये परे स्त्रीशब्दस्य अङ्गसंज्ञा न भवति तथा च स्त्री इयति इत्यत्र इयङादेशः न भवति इत्यर्थः अत एव विधिग्रहणम् अन्यथा इयति इति प्रत्यये परे स्त्रीशब्दस्यापि अङ्गसंज्ञा स्यात् तद्वारणाय अत्र विधिग्रहणं कर्तव्यम्
नाम स्त्रीशब्दस्य कदापि अङ्गसंज्ञा न भवति वा
स्त्रियौ स्त्रीः स्त्रियौ स्त्रीशब्दात् औ प्रत्ययः प्रथमाद्विवचने स्त्री औ इति विद्यते अत्र यः प्रत्ययः औ प्रत्ययः यस्मात् क्रियते स्त्रीशब्दात् क्रियते स्त्री औ इत्यत्र स्त्रीशब्दादेव खलु औ प्रत्ययो विहितः अतः औ प्रत्यये परे स्त्रीशब्दस्य अङ्गसंज्ञा भवति अन्यं प्रत्ययं गृहीत्वा अहं तद्दृष्ट्या अहम् अङ्गं भवामि इति कथं वक्तुं शक्यते यस्मात् प्रत्यय इयति इति प्रत्ययः कस्मात् विहितः इदं शब्दात् विहितः इदं शब्दस्यैव खलु इयत् प्रत्ययमाश्रित्य अङ्गसंज्ञा वक्तव्या वतु प्रत्ययमाश्रित्य असम्बद्धस्य स्त्रीशब्दस्य कथम् अङ्गसंज्ञा भवति यदि विधीयते इति नोच्यते तर्हि असम्बद्धस्यापि स्त्रीशब्दस्य अङ्गसंज्ञा स्यात् तद्वारणार्थम् अत्र विधिग्रहणम् अङ्गसंज्ञा कुत्र भवति अवधिरपि उक्तं तदादिशब्दस्वरूपम् इत्युक्ते कियत्पर्यन्तं ग्राह्यं तस्मिन् प्रत्यये परे इत्यर्थः अन्यथा प्रत्ययविशिष्टस्य ततोप्यधिकस्य वा अङ्गसंज्ञा स्यात्
प्रत्ययविशिष्टस्य अङ्गत्वे वव्रश्च इत्यत्र प्रत्ययविशिष्टस्य अङ्गत्वेन उरति इत्यादेशस्य परनिमित्तत्वाभावात् अचः परस्मिन् इति स्थानिवत्व अप्रवृत्य न सम्प्रसारणे सम्प्रसारणम् इति सम्प्रसारणनिषेधो न स्यात् यदि अधिकस्य अङ्गत्वे देवदत्तः ओदनम् अपाक्षीत् इत्यत्र देवदत्तादिशब्दोत्तरं सुपं निमित्तीकृत्य लुङ्पर्यन्तम् अङ्गत्वात् तस्य लुङ्परत्वेन देवदत्तादिशब्दात् पूर्वम् अडापत्तिः अङ्गसंज्ञायाः प्रत्ययनिमित्तत्वाभावेन लुङादिनिरूपित अङ्गस्य इत्यर्थस्य दुर्लभत्वात् प्रत्यये इत्युक्तौ तु न कोऽपि दोषः इत्यलम्
अवधिर्नास्ति खलु एतावत्पर्यन्तं ग्राह्यम् यदि अवधिर्न स्यात् तर्हि प्रत्ययविशिष्टस्य अङ्गसंज्ञा स्यात् ततोऽपि अधिकस्य वा अङ्गसंज्ञा स्यात् तद्वारणार्थम् अस्मिन् सूत्रे प्रत्यये इति वक्तव्यम् प्रत्यये इति किम् प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा अङ्गसंज्ञा मा भूत् एवञ्चात्र रामाट्टा इति स्थिते यः प्रत्ययः ता प्रत्ययः యస్మాద్ విహితః రామ శబ్దాద్ విహితః తదాది శబ్ద స్వరూపం రామ ఇత్యాకారకం తస్య తా ప్రత్యయే పరే అంగశూన్య. ఏమంటే రామ ఇది హ్రస్వాకారాంతమంగం తదపరస్య తా ప్రత్యయస్య తాన్న సింగ సామినాఖ్యాహ ఇచ్చనేన ఇనాదేశే రామ ఇన ఇది జాతే ఆద్గుణే రామేణ ఇది జాతే ణత్వే కృతే రామేణ ఇది.
రామశబ్దాత్ తృతీయా ద్వివచనే భ్యాం ప్రత్యయే రామ భ్యాం ఇతి స్థితే సుపీ చ యయాదౌ సుపి అతోంగస్య దీర్ఘః స్యాత్. అతో దీర్ఘో యయి ఇతి సూత్రం అనువర్తతే. అంగస్య ఇతి అధిక్రియతే. అతః ఇతి అంగస్య ఇచ్ఛస్య విశేషణం తదంత విధిః. యయి ఇతి సుపి ఇచ్ఛస్య విశేషణం తేన తదాది విధిః. తథా చ యయాదౌ సుపి అతోంగస్య దీర్ఘః స్యాత్ ఇత్యర్థః. యయాదౌ సుపి పరతః హ్రస్వాకారాంతస్య అంగస్య దీర్ఘో భవతి ఇత్యర్థః. అత్ర రామ ఇతి హ్రస్వాకారాంతం అంగం తస్య భ్యాం ఇతి యయాదిః సుపు పరే విద్యతే. అతః దీర్ఘే కృతే రామాభ్యాం ఇతి రూపం భవతి. అనంతరం తృతీయా బహువచనే భిస్ ప్రత్యయే రామ భిస్ ఇతి స్థితే. అతో భిస ఐస్ అంగస్య ఇత్యధిక్రియతే. అతః ఇతి అంగస్య ఇచ్ఛస్య విశేషణం తదంత విధి. ఏవంచ అకారాంతాత్ అంగాత్ భిస ఐస్యాత్. హ్రస్వాకారాంతాత్ అంగాత్ విహితః యః భిస్ తస్య ఐస్ ఇచ్చాదేశో భవతి ఇత్యర్థః. రామ భిస్ ఇతి స్థితే. రామ ఇతి హ్రస్వాకారాంతం అంగం తస్మాత్ పరః భిస్ తస్య ఐస్ ఇచ్చాదేశో భవతి. ఐస్ ఇచ్ఛస్య అనేకాల్త్వాత్ అనేకాల్సిచ్ఛర్వస్య ఇచ్చనేన సర్వాదేశే కృతే రామ ఐస్ ఇతి స్థితే. వృద్ధౌ రామైస్ ఇతి జాతే ఋత్వవిసర్గయో రామైః ఇతి రూపం భవతి. చతుర్థ్యేకవచనే రామ ఙే ఇతి స్థితే. ఙేర్యః అతోంగాత్ పరస్య ఙేః యాదేశః స్యాత్. అతోభిస ఐసి ఇచ్చతః అతః ఇచ్చన్వర్తతే. అంగస్య ఇచ్చధిక్రియతే. అతః ఇతి అంగస్య ఇచ్ఛస్య విశేషణం పంచమ్యంతత్వేన విపరిణామః. ఏవంచ హ్రస్వాకారాంతాత్ అంగాత్ పరః యో ఙే ప్రత్యయః తస్య యాదేశో భవతి ఇత్యర్థః. అత్ర రామ ఏ ఙే ఇతి స్థితే. రామ ఇతి హ్రస్వాకారాంతం అంగం తతఃపరస్య ఙే ఇచ్ఛస్య యాదేశే కృతే రామ య ఇతి స్థితే. అత్ర యాదేశస్య స్థానివద్భావేన సుప్త్వేన సుపిచ ఇచ్ఛనేన దీర్ఘః. అత్ర య ఇతి యయాదిః సుప్ తస్మిన్ పరతః రామ ఇతి హ్రస్వాకారాంతస్య అంగస్య దీర్ఘే కృతే రామాయ ఇతి రూపం భవతి. రామాయ ఇచ్చత్ర సుపిచ ఇచ్చనేన దీర్ఘః ఇచ్చుక్తం. అత్ర సన్నిపాతలక్షణో విధిః అనిమిత్తం తద్విఘాతస్య ఇతి ఏకా పరిభాషా విద్యతే. సన్నిపాతో నామ ద్వయో సంబంధః సన్నిపాతః. సన్నిపాతః లక్షణం యశసః సన్నిపాతలక్షణః. సన్నిపాతలక్షణో విధిః తత్సంబంధవిఘాతకస్య నిమిత్తం నభవతి ఇతి తస్యాః అర్థః.
అత్ర యాదేశః హ్రస్వాంతం అంగం ఆశ్రిత్య ప్రవృత్తః. హ్రస్వాంతం అంగం ఆశ్రిత్య ప్రవృత్తః యాదేశః హ్రస్వాంతత్వ విఘాతకస్య ह्रस्वान्तत्व विघातकस्य दीर्घस्य निमित्तं अभवति खलु तथा च अत्र राम य इत्यत्र कथं दीर्घः सुबिजा इत्यनेन दीर्घः इत्युक्तं खलु सुबिजा इत्यनेन दीर्घः कथं भवति सन्निपातपरिभाषा विरोधा इति चेत् सन्निपातपरिभाषायाः लौकिकन्याय एव मूलम् इत्युक्तं लोके मातापितृसम्बन्धेन जातः कुमारः पुत्रः मातृविघातस्य वा पितृविघातस्य वा निमित्तं न स्यात् अद्यत्वे वयं पश्यामः तस्यापि निमित्तं भवन्ति पितरं हन्ति मातरं च हन्ति पत्रिकासु वयं पठामः तथा च तत्र लोकेपि अनित्यमेव एवं सन्निपातपरिभाषापि अनित्या सन्निपातपरिभाषा अनित्या न सर्वत्र प्रवर्तते क्वचित् स्थलेषु सन्निपातपरिभाषा अनित्या कुतः इति चेत् कष्टाय क्रमणे इति निर्देश कष्टाय क्रमणे इति सूत्रं विद्यते कष्टाय क्रमणे इत्यत्र कष्टाय रूपं कथं भवति यथा रामाय तथैव कष्टाय कष्टसिद्धाङ्गे प्रत्ये तस्य आदेशे कष्ट य इति स्थिते सुभिते इति दीर्घे कष्टाय इति रूपं भवति यदि सन्निपातपरिभाषा नित्या स्यात् तर्हि कष्ट य इत्यत्रापि सुपिचा इत्यनेन दीर्घः न स्यात् सन्निपातपरिभाषा विरोधात् तत्रापि यकारः ह्रस्वान्ताङ्गम् आश्रित्य प्रवृत्तः यकारः ह्रस्वान्तत्वविघातकस्य दीर्घस्य निमित्तं न भवति तदा कष्टाय क्रमणि कष्टाय इति निर्देशः कथं सङ्गच्छते सूत्रकारैः कष्टाय इति निर्देशसामर्थ्यात् किं भवति इयं परिभाषा अनित्या इति ज्ञापयति तेन न सर्वत्र सन्निपातपरिभाषा प्रवर्तते एवं रामाय इत्यत्रापि सन्निपातपरिभाषा न प्रवर्तते एवञ्च सन्निपातपरिभाषायाः अप्रवृत्य अत्र दीर्घे ते रामाय इति रूपं भवति सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य परिभाषा तु नेह प्रवर्तते सन्निपातपरिभाषा इह न प्रवर्तते कुतः कष्टाय क्रमणे इति निर्देशात् तस्निर्देशेन तस्य अनित्यत्वज्ञापना कष्टाय क्रमणे इति सूत्रे कष्टाय इति निर्देशेन सन्निपातपरिभाषा अनित्या इति ज्ञाप्यते एवञ्च सन्निपातपरिभाषायाः अनित्यत्वेन अत्र अप्रवृत्य दीर्घो भवति दीर्घे कृते रामाय रामाभ्यां रामाभ्यां सुपिता सुपि ययादौ सुपि अतोऽङ्गस्य दीर्घः भ्याम् इति ययादिः सुप् तस्मिन् परे राम इति ह्रस्वाकारान्तस्य अङ्गस्य दीर्घे कृते रामाभ्यां रामेभ्यः रामशब्दात् चतुर्थी बहुवचनेभ्यः प्रत्यये रामभ्यस् इति श्रुते बहुवचने झल्ये बहुवचने झल्ये अत्र किं भवति सुपिचा इत्यनुवर्तते अतः अतो दीर्घो ये इत्यतः अतः इत्यनुवर्तते अङ्गश्च इत्यपि झलि इति सुपि इति च बहुवचने बहुवचने झलि इत्येतद्वयं सुपि इत्यस्य विशेषणं भवति एवञ्च जलादौ बहुवचने सुपि जलादौ बहुवचने सुपि अतोऽङ्गस्य एकारः स्यात् जलादिः स्यात् सुप् बहुवचनञ्च स्यात् एवञ्च तादृशे सुपिपरे ह्रस्वाकारान्तस्य अङ्गस्य एकारादेशो भवति इत्यर्थः. झलादौ बहुवचने सुपि अतोऽङ्गस्य एकारः ग्रामभ्यस् इति खलु विद्यते अत्र सुपोभ्यस् तत्र झलादिः एवञ्च चतुर्थी बहुवचनम् एवञ्च झलादिः बहुवचनञ्च सुपुभ्यस्ति तस्मिन् परे राम इति ह्रस्वाकारान्तस्य अङ्गस्य एकारादेशे कृते रामेभ्य इति जाते रुद्रविसर्गयोः
बहुवचने किं
बहुवचने किं रामः रामस्य रामः इति उच्यते रामशब्दात् प्रथमैकवचने सुप्रत्यये राम सु इति सु इति सुप् झलादिः एवञ्च झलादिः सुप् परे विद्यते इति कृत्वा राम इत्यत्र अकारस्य एकारः स्यात्. अतः किं वक्तव्यं बहुवचने सुपि इति वक्तव्यं सु इति झलादिः सुप् तथापि बहुवचनं न भवति अथा च नात्र एकारादेश तथा च वृत्तविसर्गयोः रामः षष्ठी एकवचने रामस्य इति भवति राम नस् इत्यत्र नस् इत्यस्य स्थाने स्यादेशे कृते राम स्या इति स्थले स्या इति झलादिः सुप् अतः राम इत्यत्र अकारः स्यात् एकारः स्यात्. अतः किं वक्तव्यं
बहुवचने
बहुवचने सुपि स्य इति षष्ठ्येकवचनं भवति न तु बहुवचनम् अतः नात्र एकारादेश तथा च रामस्य इति तदेव रामः रामस्य इत्यत्र एकारवारणार्थं किं वक्तव्यं बहुवचने इति वक्तव्यं झलिनि अस्तु बहुवचने सुपि परे एकादेशो भवति इत्यस्तु इति चेत् रामाणाम् इत्यत्र दोषः स्यात्. रामशब्दस्य षष्ठी बहुवचने रामाणाम् इति भवति कथं भवति इत्यत्रे उच्यते राम नाम इति स्थिते रामनाम इति बहुवचनं सुप् तस्मिन् पदे नाम इति षष्ठी बहुवचने सुपि पदे राम इति ह्रस्वाकारान्तस्य अङ्गस्य एकारः स्यात्. अतः झलादौ बहुवचने सुपि इति वक्तव्यम् अत्र बहुवचनमपि बहुवचनमेव सुपेव परन्तु झलादयं न भवति नकारः झकृजाले नास्ति एवञ्च झलादिः सुप् परे नास्ति इति कृत्वा न तत्र एकारादेश सुपि किम् अस्तु जलादौ बहुवचने ह्रस्वाकारान्तस्य अङ्गस्य एकारः स्यादित्येव अस्तु सुपि इति कुतो वा वक्तव्यम् इति चेत् अन्यथा पचध्वम् इत्यत्र दोषः स्यात्. पचध्वं पचधातोः लोट् मध्यमपुरुष बहुवचने पचध्वम् इति रूपं पचध्वम् इति लिख्यते ध्वम् इति झलादिः बहुवचनञ्च पचपुरुष बहुवचनम् इत्युक्तं झलादिरेव तस्मिन् पदे पच इत्यत्रापि एकारः स्यात्. अतः किं वक्तव्यं झलादौ बहुवचने सुपिपरे एकारः ध्वमिति यद्यपि झलादिः बहुवचनं तदापि सुप् न भवति एवञ्च झलादिः बहुवचनं सुप् परे नास्ति इति कृत्वा न तत्र एकादेश एकार तथा किं भवति पचध्वम् एवञ्च रामाय रामाभ्यां रामेभ्यः रामात् रामशब्दात् पञ्चमे एकवचने नसि प्रत्यये रामानसि इति स्थिते इकारस्य नकारस्य विसंज्ञा अस् इत्येव उच्यते राम अस् इत्यत्र तान् नसि नसाम् इनाद् स्यात् अदन्तात् तादीनाम् इनादयः क्रमात् स्युः पूर्वम् उक्तं खलु ह्रस्वाकारान्तादङ्गात् परस्य परेषां तान् नसि नसाम् కర్ణేన ఇన అత్ స్యాత్ ఇతి భవత భవంతి. అత్ర రామ ఇది హ్రస్వాకారాంత దంగాత్ పర నసి ప్రత్యయ ఏమంట తస్య ఆత్ ఇత్యాదేశో భవతి. ఆత్ ఇత్యాదేశే రామ ఆత్ ఇది స్థితే సవర్ణలేభే రామాత్ ఇది జాతే ఏ జలాం జశోంతే పదాంతే జలాం జశస్యు పదాంతే విద్యతే తకారః జల్ అదా తస్య స్థానే జస్తేన జకారాదేశే రామాద్ ఇది జాతే వావసానే అవసానే జలాం చరోవాశు అత్ర ధకారః అవసానే విద్యతే అవసానం నామ విరామోవసానం ఇది ఖలు ఉక్తం యస్మాత్ పరే వర్ణః నాస్తి ఖలు అవసానం. ఏమంట అవసానే విద్యమానస్య ధకారస్య స్థానే చట్టం వికల్పేన భవతి తకారాదేశః వికల్పేన భవతి. ఏమంట తకారాదేశే కృతే రామాత్ రామాద్ ఇది రూపద్వయం భవతి. అచ్చు పరే నాస్తి హల్ పరే స్యాదితి నాస్తి నియమ అచ్చు పరే నాస్తి అచ్చు పరే నాస్తి హల్ పరే ఆవశ్యకతా నాస్తి హల్ ఆవశ్యకతా నాస్తి పరే అస్తు వా మాస్తు వా అచ్చు పరే నా స్యాత్ అచ్చు పరే నాస్తి అత్రం భవతి ద్వం వికల్పేన భవతి. ఏమంటే రామాత్ రామాత్ రామాద్ రామాత్ ద్వితే రూపచతుష్టయం రామాత్ రామాత్ రామాభ్యాం రామశబ్దాత్ పంచమీ ద్వివచనేభ్యాం ప్రత్యయ రామత్ భ్యాం ఇది స్థితే సుపితా ఇచ్చనే దీర్ఘే రామాభ్యాం రామభ్యస్ బహువచనే జల్యే కించనైన ఏ ద్వే జస్తి జలాది బహువచన తస్మిన్ పరే అత రామ ఇత్యత్ర అకారస్య ఏకారాదేశే కృతే రామేభ్యస్ కృతే శబ్దో రామేభ్య రామస్య రామ నస్ తా నసి నసాం
రామస్య ఇచ్చత్ర అనచిచా ఇతి సూత్రేణ సకారస్య ద్విత్వం భవతి. ద్వితే కృతే రామస్య ఇతి ద్విసకారకం రూపం. తత్ర ఖరిచా ఇతి సూత్రేణ యజ్ఞపి ప్రథమ సకారస్య చర్త్వం భవతి తదాపి చర్త్వం సకార ఏవ భవతి నతు తకారః యతో హి సకారః మహాప్రాణ ప్రయత్నకః మహాప్రాణ ప్రయత్నకస్య సకారస్య స్థానే మహాప్రాణ ప్రయత్నః సకార ఏవ భవతి నతు తకారః. అతేవ సస్యార్ధధాతుకే ఇతి సూత్రేణ సకారస్య స్థానే తకారాదేశో విహితః. నమ తత్ర సకారస్య సకారాదౌ ఆర్ధధాతుకే పరే తకారాదేశో విహితః. యది సకారస్య చర్త్వేన తకారో భవతి తర్హి సస్యార్ధధాతుకే ఇతి సూత్రం వ్యర్థం స్యాత్. తదారంభ సామర్థ్యాత్ సకారస్య స్థానే చర్త్వేన సకార ఏవ భవతి నతు తకారః.
రామయో రామ ఓస్ రామ ఓస్ ఓసిత అదోంగస్యైకారః ఓసి పరే హ్రస్వాకారాంతస్య అంగస్య ఏకారాదేశో భవతి. दोषी परे कस्वाकारान दश्य अंगश्य एकारादेशो भवति वामा ओस इत्यत्र ओस परे विद्यते वामा इति हस्वाकारान्तम् अंगम् तस्य एकारादेशे कृते रामे ओस इचो वायावः रामयोस् वृत्तविसर्गयोः रामयोः इति रूपम् अनन्तरं रामाणाम् रामाणाम् रामशब्दात् षष्ठी बहुवचने आम् प्रत्यये कृते राम आम् इति स्थिते ह्रस्व नज्जापो नुट् ह्रस्व नज्जापो नुट् अत्र अङ्गस्य इत्यधिक्रियते जन्यन्तेन विपरिणामः ह्रस्वनज्जापः इति अङ्गस्य इत्यस्य विशेषणं तथा च तदन्तविधिः एवञ्च ह्रस्वान्तात् नद्यन्तात् आबन्ताच्च अङ्गात् परस्य आमः नुडागमो भवति इत्यर्थः ह्रस्वान्तं यदङ्गं नदी संज्ञा विधीयते ईकार ऊकारान्त नित्यस्त्रीलिङ्गशब्दानां नदी संज्ञा विधीयते अग्रे गौरी इति विद्यते खलु गौरी इति ईकारान्तम् ईकारान्तः नित्यस्त्रीलिङ्गशब्दः वधूः इति विद्यते ऊकारान्तः नित्यस्त्रीलिङ्गशब्दः यश्च शब्दः केवलं स्त्रीलिङ्गे एव विद्यते स एव शब्दः नित्यस्त्रीलिङ्गशब्दः एवञ्च ईकारान्तस्य ऊकारान्तस्य च नित्यस्त्रीलिङ्गशब्दस्य नदीसंज्ञा विधीयते अग्रे एवञ्च ह्रस्वान्तादङ्गात् नद्यन्ताच्च अङ्गात् आबन्ताच्च अङ्गात् आप्रत्ययः उक्तः रमा इत्यादि एवञ्च ह्रस्वान्तात् नद्यन्तात् आबन्ताच्च अङ्गात् परस्य आमः नुट् इत्यागमो भवति इत्यर्थः अत्र राम आम् इति खलु विद्यते राम इति ह्रस्वान्तम् अङ्गम् राम इति ह्रस्वान्तम् अङ्गम् ततः परस्य आमः नुडागमो भवति नुटि उकारस्य टकारस्य च इत्संज्ञा नुट् हलञ्चमित्यनेन टकारस्य इत्संज्ञा उकारः उच्चारणार्थः अथवा उपदेशे अजरनास्के इत्यनेन उकारस्यापि इत्संज्ञा न इति शिष्यते स च तित्वात् आमः आज्यवयवत्वेन भवति आज्यन्तौ टकितौ तिक्कितौ यशोक्तौ तस्य क्रमात् आज्यन्तावयवौ स्तः तिक् आगमः यस्य विधीयते तस्य आदौ तस्य अवयवत्वेन भवति आमः नुडागमो भवति इत्युक्तं खलु न इति आमः आग्रे भवति आमः अवयवस्सन् भवति एवञ्च नाम इति विद्यते राम नाम राम नाम इति स्थिते नामी अजन्ताङ्गस्य दीर्घः नामि परे अजन्तस्य अङ्गस्य दीर्घो भवति इत्यर्थः नामि परे अजन्तस्य अङ्गस्य दीर्घो भवति राम नाम इत्यत्र नाम इति परे विद्यते अतः राम इति अजन्तस्य अङ्गस्य दीर्घे रामानाम् इति जाते अट्पुक्वान्नं व्यवायेति र इत्यत्र रेफः विद्यते नाम इत्यत्र नकारश्च विद्यते मध्ये आकारः अट् नकारः प्रवर्गः अनन्तरं पुनः आकारः विद्यते स च अट् तेन व्यवधाने सत्वेऽपि रेफात् परस्य नकारस्य णकारादेशे कृते रामाणाम् इति रूपं भवति अस्तु रामा नाम इति विद्यते अत्र दीर्घो भवति केन सूत्रेण दीर्घो भवति नामे इति सूत्रेण दीर्घो भवति राम इत्यजन्तस्य अङ्गस्य नामे परे दीर्घो अपरञ्च एकं सूत्रम् अस्ति दीर्घविधायकं सूत्रं सुपि च ययादौ सुपि अजो अतोङ्गस्य दीर्घः स्यात् नामिति ययादिः सुप् तस्मिन् परे राम इति ह्रस्वाकारान्तम् अङ्गम् एवञ्च तस्य दीर्घः भवति खलु अत्र सुपि च इत्यनेनैव दीर्घः भवितुम् अर्हति नामीत्यनेनापि दीर्घ एव विधीयते सुपि च इत्यनेनापि दीर्घ एव विधीयते परन्तु सुपि च इति दीर्घः परः नामी इत्यतः परः परं सूत्रं सुपि च इति परत्वात् अत्र सुपि च इत्यनेनैव दीर्घः स्यात् पुनः नामीत्यनेन कथं वा दीर्घः राम नाम इत्यत्वा नामी इत्यनेन दीर्घो भवति इत्युक्तम् अत्र सुपि च इत्यनेन दीर्घः प्राप्नोत्येव स च दीर्घः परः नामीति सूत्रात् परं सूत्रं सुपि च इति परत्वात् सुपि च इत्यनेनैव अत्र दीर्घः स्यात् इति चेत् उच्यते सुपि च इति सूत्रेण विधीयमानः दीर्घः यद्यपि परः तथापि अत्र न प्रवर्तते कुतः सन्निपातपरिभाषा विरोधा सन्निपातपरिभाषा उक्ता क्या नाम सन्निपातलक्षणः विधिः अनिमित्तं तद्विघातस्य द्वयोः सम्बन्धम् आश्रित्य प्रवृत्तः विधिः तत्सम्बन्धविघातकस्य निमित्तं न भवति उक्तं खलु मातापितृसम्बन्धेन जातः पुत्रः मातृनाशस्य वा पितृनाशस्य वा निमित्तं न स्यात् खलु एवञ्च अत्र नुट् खलु जातः नुट् किमाश्रित्य जातः ह्रस्वान्तमङ्गम् आश्रित्य जातः नुट् ह्रस्वान्तात् अङ्गात् परस्य खलु आमः नुड् विधीयते एवञ्च ह्रस्वान्तम् अङ्गम् आश्रित्य प्रवृत्तः नुडागमः ह्रस्वान्तत्वविघातकस्य सुपि च इत्यनेन विधीयमानस्य दीर्घस्य निमित्तं न भवति दीर्घे कृते ह्रस्वान्तत्वं नश्यति दीर्घे कृते ह्रस्वान्तत्वं नश्यति खलु एवञ्च नुट् ह्रस्वान्तम् अङ्गम् आश्रित्य प्रवृत्तः नुडागमः ह्रस्वान्तत्वविघातकस्य दीर्घस्य निमित्तं न भवति तथा च अत्र सुपि च इत्यनेन दीर्घः न भवति कुतः सन्निपातपरिभाषा विरोधः सन्निपातपरिभाषाविरोधः नाम उक्तः खलु सन्निपातं द्वयोः सम्बन्धम् आश्रित्य प्रवृत्तः विधिः तत्सम्बन्धविघातकस्य निमित्तं न भवति अत्र ह्रस्वान्तमङ्गम् आश्रित्य प्रवृत्तः नुडागमः ह्रस्वान्तत्वविघातकस्य सुपि च इत्यनेन विधीयमानस्य दीर्घस्य निमित्तं न भवति तथा चात्र किं भवति सुपि च इत्यनेन दीर्घो न भवति पुनः केन भवति नामीत्यनेन भवति खलु नामीत्यनेन किं क्रियते नामीत्यनेनापि दीर्घ एव खलु अत्रापि नुट् ह्रस्वान्तमङ्गम् आश्रित्य प्रवृत्तः नुडागमः ह्रस्वान्तत्वविघातकस्य नामीत्यनेन विधीयमानस्यापि दीर्घस्य निमित्तं न भवति यथा सुपि चेति दीर्घः ह्रस्वान्तत्वविघातकः एवं नामीत्यनेन विधीयमानोऽपि दीर्घः ह्रस्वान्तत्वविघातक एव खलु एवञ्च नामीज्जनेन विधीयमानस्य दीर्घस्यापि ह्रस्वान्तत्र विघातकत्वेन तस्यापि लुटु निमित्तं न भवति. कथमत्र नामीज्जनेन दीर्घो भवति? उभयमपि समानमेव खलु. सुपिचा इति नामीज्यपि समानमेव. सन्निपात परिभाषा विरोधादि यदि सुपिचा इत्यनेन दीर्घः न भवति एवमेव सन्निपात परिभाषा विरोधात् नामीचनेनापि दीर्घो न स्यात् इति चेत् नामीचनेन दीर्घः कदा भवति? नामिपरे भवति. नामीचनेन दीर्घः विधीयते केवलं नामिपरे भवति. नामिच्युक्ते लुड्विशिष्टः आप् नामिप खले भवति खलु. नामि नामिपरे अजन्ताङ्गस्य दीर्घः स्यात्. नामिच्युक्ते लुड्विशिष्टः आप् न आम् नाम न इति लुडागमः खलु. एवञ्च लुडागमेन विशिष्टः आम् लुडागमश्च कदा भवति? ह्रस्वान्तमङ्गमाश्रित्य भवति खलु. एवञ्च नाम्नि केवलं नामिपरे एव लुड्विशिष्टे आमिपरे एव नामि इत्यनेन दीर्घो भवति. नामीचनेन दीर्घः लुड्विशिष्टे आमिपरे सत्येव भवति. अन्यत्र तस्य प्राप्तिर्नास्ति खलु. एवञ्च यदि नामीचनेन प्राप्तस्य दीर्घस्यापि सन्निपातपरिभाषाविरोधात् अप्रवृत्तिः तर्हि नामीचनेन दीर्घः कुत्र वा प्रवर्तते? स च व्यर्थः स्यात्. नामीचनेन विधीयमानः दीर्घः व्यर्थः स्यात्. एवञ्च नामीचनेन दीर्घविधानसामर्थ्यात् नामीचनेन दीर्घे कर्तव्ये सन्निपातपरिभाषा न प्रवर्तते. नामि इति सूत्रमेव सन्निपातपरिभाषां बाधते. अतः नामि इति विषये सन्निपातपरिभाषा न प्रवर्तते. तथा च राम नाम इत्यत्र नामि इत्यनेन दीर्घः स्यादेव. तथा च रामाणाम् इति स्थिते णत्वे कृते रामाणाम् इति रूपं भवति. कौमुद्यां पङ्क्तयः एवं विद्यन्ते. सुपिचेति दीर्घः परः रामाणाम् इत्यत्र सुपिच इत्यनेन दीर्घः प्राप्तः नामी इत्यनेन दीर्घश्च प्राप्तः. तदापि सुपिचा इत्यनेन विधीयमानः दीर्घः यद्यपि परः तथापि ह न प्रवर्तते. रामाणाम् इत्यनेन इत्यत्र सुपिचा इत्यनेन विधीयमानः दीर्घः न प्रवर्तते. कुतः? सन्निपातपरिभाषा विरोधा. सन्निपातपरिभाषया विरोधो विद्यते. नाम अत्र ह्रस्वान्तम् अङ्गम् आश्रित्य प्रवृत्तः मृडागमः ह्रस्वान्तत्वविघातकश्च सुपि चेति दीर्घस्य निमित्तं न भवति. तथा च अत्र किमे सुपिचा इत्यनेन दीर्घः न भवति. कथं तर्हि नामीत्यनेन दीर्घः? तत्रापि सन्निपातपरिभाषायाः विरोधः विद्यते एव इति चेत् नामीचनेन तु आरम्भसामर्थ्यात् परिभाषा बाध्यते. नामीचनेन दीर्घविधानसामर्थ्यात् नाम नामीचनेन दीर्घः कदा भवति? लुड्विशिष्टे आमिपरे प्रवर्तते. नामित्युक्ते लुड्विशिष्टः आम् खलु. लुट् च ह्रस्वान्तमङ्गम् आश्रित्य प्रवर्तते. एवञ्च यदि लुट् ह्रस्वान्तत्वविघातकस्य दीर्घस्य निमित्तं न भवति तर्हि नामिपरे न कुत्रापि दीर्घस्य प्राप्तिः. तथा च नामीति सूत्रं व्यर्थं स्यात्. एवं आरम्भसामर्थ्यात् नामीति सूत्रस्य आरम्भसामर्थ्यात् పరిభాషా బాధ్యతే. సన్నిపాత పరిభాషామపి నామీతి సూత్రం బాధతే. అర్థాత్ నామీతి సూత్రే కర్తవ్యే, సన్నిపాత పరిభాష న ప్రవర్తతే. తథాచ రామ నామ్ ఇతి స్థితే నామీత్యనేన దీర్ఘే రామానామ్ ఇతి జాతే ణత్రేతే రామాణాం ఇతి లోకం భవతి. రామే రామశబ్దాత్ సప్తమ్యేకవచనే నిప్రత్యయే రామ ని ఇతి స్థితే నకారస్య ఇత్సంజ్ఞాయాం లోపే చ లషక్వ తద్ధితే చిత్తం ఖలు తద్ధితవర్జ ప్రత్యాజ్యాః లష కవర్గాః ఇతస్యు. అత్ర కవర్గః నకారః అతః తస్య నకారస్య ఇత్సంజ్ఞాయాం లోపే చ రామ ఇ ఇతి స్థితే ఆద్గుణః ఇత్యనేన గుణే కృతే రామే రామయోః రామ ఓస్ ఓసి చ అతుంగస్య ఏకారః ఓసి పరే హ్రస్వాంతస్య అంగస్య ఏకారాదేశో భవతి. ఏమంచ ఏకారాదేశే కృతే రామే ఓస్ ఏకవాయావహాయిక సూత్రేణ అయాదేశే రామయోస్ ఇది జాతే రుత్వే విసర్గే చ రామయోః ఇది రూపం భవతి. అనంతరం అపదాంతస్య మూర్ధన్యః ఇంకోః ఇత్యధికృత్య అపదాంతస్య మూర్ధన్యః ఇది ఇంకోః ఇది చ సూత్రం అధికార సూత్రం. అపదాంతస్య మూర్ధన్యః ఇది ఇంకోః ఇది చ అధికార సూత్రద్వయం. నమ అగ్రిమ సూత్రే అధిక్రియేతే. ఏమంటే ఇంకోహ నమ ఇంచ కవర్గశ్చ ఇంకోహ ఇంకోహ నమ ఇన్ కవర్గాభ్యాం ఇచ్చస్య ఇచ్చర్థో భవతి. ఆదేశ ప్రత్యయయోహ ఆదేశ ప్రత్యయయోహ సహే సాడస్ సహ ఇతి సూత్రాత్ అస్మిన్ సూత్రే సహ ఇచ్చనువర్తతే. అపదాంతస్య ఇతి విద్యతే ఖలు అపదాంతస్య మూర్ధన్యః ఇత్యధి క్రియతే అపదాంతస్య ఇతి సహ ఇత్యస్య విశేషణం. నమ అపదాంతస్య సకారస్య ఇన్ కుభ్యాం పరస్య ఇన్ కవర్గాభ్యాం పరస్య ఆదేశ ప్రత్యయో ఆదేశ ఆదేశ రూపస్య ప్రత్యయ అవయవస్య చ ఆదేశస్య ప్రత్యయావయవస్య యః సః తస్య సజ ఆదేశ రూపః స్యాత్ సకారః అథవా ప్రత్యయస్య అవయవః స్యాత్. ఆదేశ ప్రత్యయస్య ఇది ఖలు విద్యతే ప్రత్యయస్య ఇది అవయవ షష్ఠి ఆదేశ ప్రత్యయోహ ఇది షష్ఠీ వివచనం ప్రత్యత్ర ప్రత్యయస్య ఇది అవయవ షష్ఠ్యంతం భవతి. ఏమంత ఇన్ కుభ్యాం పరస్య ఇన్ కవర్గాభ్యాం పరస్య ఆదేశస్య ప్రత్యయావయవశ్చ యః సః తస్య చ ప్రత్యయస్య అవయవః యః సకారః తస్య చ మూర్ధన్యాదేశస్య మూర్ధన్యానం మూర్ధస్థానిక ఆదేశ ఇత్యర్థ. ఏవంచ ఇంకవర్గాభ్యాం పరస్య అపదాంతస్య ఆదేశ ప్రత్యయావయవశ్చ యః సః తస్య మూర్ధన్యాదేశ స్యాదిత్యర్థో భవతి. అత్ర రామశబ్దాత్ షష్టమీ బహువచనె సుప్ ప్రత్యయే రామ సు ఇతి జాతే రామ సు ఇతి జాతే బహువచనే ఝల్యే ఝలాదౌ బహువచనే సుపి అతోంగస్య ఏకారః ఝలాదౌ బహువచనే సుపి పరే హ్రస్వాకారాంతస్య అంగస్య ఏకారాదేశో భవతి. అత్ర సు ఇతి ఝలాదిః సప్తమీ బహువచనం చ సుప్ తస్మిన్ పరే రామ ఇది హ్రస్వాకారాంతస్య అంగస్య ఏకారాదేశో భవతి. एवञ्च एकारादेशे रामे सु इति विद्यते. अत्र सु इति सकारः अपदान्तः, पदान्ते नास्ति खलु, पदान्ते उकारः विद्यते. सु इत्यत्र उकारः खलु पदान्तः, उक सकारः अपदान्तः, प्रत्ययस्य अवयवश्च. एवं स च एकारात् परः, रामे सु खलु, एकारात् परे विद्यते. एकारः इन् प्रत्याहारे विद्यते. एनम् इनः परः सकारः आदेशरूप अति प्रत्ययावयवः अपदान्तश्च, तस्य मूर्धन्यादेशो भवति. मूर्धन्यादेशो नाम मूर्धस्थानिकः आदेशः. मूर्धस्थानिकाः के? ऋतुरसाः. अत्र को वा भवति सकारस्य स्थाने? नाम ईषद्विवृतस्य सस्य तादृश एव सः. सकारस्य ईषद्विवृतप्रयत्नः, ईषद्विवृतम् ऊष्मणां खलु, विवृतस्य सस्य इत्युक्तं वा?
विवृतस्य,
विवृतस्य सस्य सिद्धान्तकौमुद्यम् ईषद्विवृतप्रयत्न एव नास्ति इति मन्ये. नास्ति खलु? आद्य चतुर्थ स्पृष्टेश स्पृष्टेशद्विवृत विवृतसंवृतभेद, स्पृष्टेश स्पृष्ट विवृतसंवृतभेद. तत्र ईषद्विवृतप्रयत्नः नास्ति लघुभव सिद्धान्तकौमुद्य. विवृतम् ऊष्मणां स्वराणाञ्च, विवृतम् ऊष्मणां स्वराणाञ्च इति विद्यते. नाम ईषद्विवृतप्रयत्नः नास्ति कौमुद्यां, लघुकौमुद्यां विद्यते. सिद्धान्तकौमुद्याम् ईषद्विवृतप्रयत्नः नास्ति. एवञ्च सकारस्य विवृतप्रयत्नः ऋतुरस इत्यत्र विवृतप्रयत्नस्य सकारस्य स्थाने विवृतप्रयत्नवान् षकारो भवति. एवञ्च षकारादेशे रामेषु इति रूपं भवति.